इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। केन्द्रीय गृहमन्त्रिणा अमितशाहेन उक्तं यत् नक्सलवादेन कस्यापि लाभः न भवति, केवलं शान्त्या एव विकासस्य मार्गः प्रशस्तः भविष्यति। छत्तीसगढ़स्य जगदलपुरे बस्तर ओलंपिक क्रीडायाः समापन समारोहं संबोधयन् तेनोदीरितं यत् 26,000 मार्च मासस्य 31 दिनांक पर्यन्तं नक्सलवादं समूलं विनश्यति। सः अवदत् यत् आगामिषु पञ्चवर्षेषु छत्तीसगढ़स्य बस्तर संभागं देशस्य सर्वाधिक विकसित जनजातीय क्षेत्र रूपेण परिवर्तयितुं केन्द्रेण निर्णयः स्वीकृतः। गृहमन्त्रिणा अधुनापि तेभ्यः शस्त्राणि समर्पयित्वा समाजस्य मुख्यधारायां सम्मिलितुं प्रार्थितम्। अखिल भारतीय आयुर्विज्ञान संस्थानेन एम्स दिल्ली इत्यनेन सुपरनोवा स्टेंट इति नूतनस्य उन्नतस्य च स्ट्रोक चिकित्सा संयंत्रस्य भारते प्रथमं चिकित्सकीय परीक्षणं कृतम्। एम्स इत्यनेन अधोरेखितं यत् एतत् राष्ट्रस्य प्रथमं स्ट्रोक उपकरणम् अस्ति यत् देशीय चिकित्सकीय परीक्षणस्य आधारेण अनुमोदितम्। एतेन यंत्रेण दक्षिण पूर्व एशियायां 300+ रोगिणाम् उपचारः सम्पन्नम्। पश्चिम बंगाल राज्ये अपर मुख्य निर्वाचनाधिकारिणा अरिंदम नियोगिना उक्तं यत् SIR प्रक्रियायाः अभियोग आक्षेप चरणयोः 130,00,000 जनाः विचारार्थं आगमिष्यन्ति। राज्ये 58,00,000 गणना प्रपत्राणि असंकलनीयानि सन्ति इति। केन्द्रीय संचार मन्त्रिणा ज्योतिरादित्य सिंधिया वर्येण उक्तं यत् पत्रवाहकः न केवलं पत्राणि अपितु भारतस्य प्रत्येकस्मिन् गृहे विभिन्नाः सर्वकारीय सेवाः च प्रददाति, ते विश्वासस्य सेतुः सन्तीति वर्णितवान्। सः ग्रामीण भारतं संयोजने राष्ट्रस्य विकासे च तेषां महती भूमिकाम् अधोरेखितवान्। श्री सिंधिया ह्यः कोल्हापुरनगरे आयोजिते ग्रामीण डाक सेवक सम्मेलने गोवा पुणे प्रदेशयोः प्रायः 6,000 यावत् ग्रामीण डाक सेवक इत्येतेषां विशाल समागमं सम्बोधयन् एतत् उक्तवान्। केन्द्रीय वस्त्र मन्त्रिणा गिरिराज सिंहेन उक्तं यत् हस्तशिल्प उद्योगस्य निर्यातः प्रायः 50,000 कोटि रूप्यकाणि अस्ति, तथा च शीघ्रमेव 1,00,000 कोटि रूप्यकाणि यावत् वर्धयितुं शक्यते। नवदिल्ल्यां क्राफ्टेड फॉर द फ्यूचर इत्यस्य तृतीय संस्करणस्य उद्घाटनावसरे श्री सिंहः एतत् उक्तवान्। दिल्ली NCR क्षेत्रे वायुगुणवत्ता निम्नस्तरं प्राप्तेः अनन्तरं वायुगुणवत्ता प्रबन्धनायोगेन CAQM इत्यनेन तत्क्षणप्रभावेण ग्रेडेड रिस्पॉन्स एक्शन प्लान ग्रैप इत्यस्य तृतीयं चरणं समारब्धम्। निर्णयोऽयं नगरे वायुगुणवत्ता सूचकांकः गभीरश्रेण्यां प्राप्तेः अनन्तरं स्वीकृतः। एतत् पूर्वमेव प्रवृत्तस्य ग्रैप इत्यस्य प्रथम द्वितीय चरणयोः अन्तर्गतेषु कार्येषु अतिरिक्तं प्रतिबन्धेषु अत्यावश्यक निर्माण विध्वंसादि कार्याणि पूर्णतया प्रतिबन्धितानि भविष्यन्ति। पुरुष क्रिकेट क्रीडायां भारतीय दलं दक्षिण अफ्रीका दलं अद्य धर्मशाला नगरे तृतीयायां 20-20 अन्तर्राष्ट्रिय क्रीडायां सम्मुखीकरिष्यति। हिमाचल प्रदेश क्रिकेट संघस्य क्रीडांगणे सायं 7 क्रीडायाः आरम्भ भविष्यति। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे श्रोतुं प्रभवन्ति इति वार्ताः।